घेरण्ड संहितायां सप्तमोपदेशः अथ समाधि प्रकरणं घेरण्डुवात् समाधिश्च परो योगो बहुभाग्येन लभ्यते गुरोः कृपा प्रसादेन प्राप्यते गुरुभक्तितः विद्या प्रतीतिः स्वगुरु प्रतीतेर् आत्म प्रतीतेर् मनसः प्रबोधः दिने दिने यस्य भवेत् स योगी सुशोभनाभ्यासमुपैति सद्यः घटाद्भिन्नं मनः कृत्वा ऐक्यं कुर्यात् परात्मनि समाधिं तं विजानीयान् मुक्तसंज्ञो दशादिभिः अहं ब्रह्म न चान्यो अस्मि ब्रह्मैवाहं न शोकभाग् सच्चिदानन्दरूपोऽहं नित्यमुक्त स्वभाववान् समाधियोगस्य भेदाः साम्भव्या चैव केचर्या भ्रामर्या योनिमुद्रया ध्यानं नादं रसानन्दं लयसिद्धिश्चतुर्विधा पञ्चदा भक्तियोगेन मनोर्मूर्छा च षड्विधा षड्विधा राजयोगोऽयं प्रत्येकम् अवधारयेत् ध्यान योग समाधि सांभवी मुद्रिकां कृत्वा आत्म प्रत्यक्षं मानयेत् बिंदु ब्रह्ममयं दृष्ट्वा मनस्तत्र नियोजयेत् खा मध्ये कुरु चात्मानं आत्ममध्ये च खं कुरु आत्मानं खमयं दृष्ट्वा न किञ्चिदपि बाधते सदानन्दमयो भूत्वा समाधिस्थो भवेन्नरः नादयोगसमाधिः साधनात् खेचरी मुद्रा रसनोर्ध्वगता यदा तदा समाधिसिद्धिः स्याद् धित्वा साधारणक्रियां रसानन्दयोगसमाधिः अनिलं मन्दवेगेन भ्रामरीकुम्भकं चरेत् मन्दं विरेचयेद्वायुं भ्रङ्गनादं ततो भवेत् अन्तस्थं भ्रामरीनादं श्रुत्वा तत्र मनोनयेत् समाधिर्जायते तत्र चानन्दः सोऽहम् इत्यतः लयसिद्धियोगसमाधिः योनिमुद्रां समासाद्य स्वयं शक्तिमयो भवेत् सुशृङ्गारसेनैव विहरेत् परमात्मनि आनन्दमयः सम्भूत्वा चैक्यं ब्रह्मणि सम्भवेत् आं ब्रह्मेति चाद्वैतं समाधिस्तेञ्जायते भक्तियोगसमाधिः स्वकीयहृदये ध्यायेद् इष्टदेव स्वरूपकं चिन्तयेद् भक्तियोगेन परमालात् पूर्वकम् आनन्दाश्रुपुल्केन दशाभावः प्रजायते समाधिसम्भवेत्तेन सम्भवेच्च मनोन्मनि राजयोगसमाधिः मनोमूर्च्छां समासाद्य मनात्मने योजयेत् परात्मना समायोगात् समाधिं समावाप्नुयात् समाधियोगमाहात्म्यम् इति ते कथितश्चण्ड समाधिर्मुक्ते लक्षणम् राजयोगसमाधिः स्यात् एकात्मन्येव साधनम् उन्मनि सहजावस्था सर्वे चैकात्म वाचकाः जले विष्णु स्थले विष्णुर् विष्णु पर्वतमस्तके ज्वालामलाकुले विष्णुः सर्वं विष्णुमयं जगत् भूचरा खेचराश्चामि यावन्तो जीवजन्तवः वृक्षगुल्मलता वल्ली तृणाद्यावारी पर्वताः सर्वं ब्रह्म विजानीयात् सर्वं पश्यति चात्मनि आत्मा घटस्थ चैतन्यम् अद्वैतं शाश्वतं परं घटात् विभिन्नतो ज्ञात्वा वीतरागो विवासनः एवं मिथा समाधि स्यात् सर्वसंकल्पवर्जितः स्वदेहे पुत्रदारादि बान्धवेषु धनादिषु सर्वेषु निर्ममो भूत्वा समाधिं समावाप्नुयात् तत्त्वं लयामृतं गोप्यं शिवोक्तं विविधानि च तेषां संक्षेपम् आदाय कथितं मुक्ते लक्षणम् इति ते कथितश्चण्ड समाधेर्दुर्लभः परः यं ज्ञात्वा न पुनर्जन्म जायते भूमिमण्डले इति श्री घेरण्ड संहितायां घेरण्ड चंडिका पाली संवादे समाधि योग वर्णन नाम सप्तमोपदेशः इति घेरण्ड संहिता समाप्ता।